श्रीरङ्गगद्यम् चिदचित्परतत्त्वानां तत्त्वयाथार्थ्यवेदिने रामानुजाय मुनये नमो मम गरीयसे स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम् क्लेशकर्माद्यशेषदोषासंस्पृष्टम् स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्य वीर्यशक्तितेजःसौशील्यवात्सल्य मार्दवार्जवसौहार्दसाम्यकारुण्य माधुर्यगाम्भीर्य औदार्यचातुर्यस्थैर्यधैर्यशौर्यपराक्रम सत्यकामसत्यसङ्कल्प कृतित्वकृतज्ञताद्यसङ्ख्येय कल्याणगुणगणौघमहार्णवम् परब्रह्मभूतम् पुरुषोत्तमम् श्रीरङ्गशायिनम् अस्मत्स्वामिनम् प्रबुद्धनित्यनियाम्य नित्यदास्यैकरसात्मस्वभावोऽहम् तदेकानुभवः तदेकप्रियः परिपूर्णम् भगवन्तम् विशदतमानुभवेन निरन्तरमनुभूय तदनुभवजनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूपनित्यकिङ्करो भवानी स्वात्मनित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धानपूर्वकभगवदनवधिकातिशय स्वाम्याद्यखिलगुणगणानुभवजनित अनवधिकातिशय प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्युपायभूतभक्ति तदुपाय सम्यग्ज्ञान तदुपाय समीचीनक्रिया तदनुगुणसात्विकतास्तिक्यादि समस्तात्मगुणविहीनः दुरुत्तरानन्ततद्विपर्यय ज्ञानक्रियानुगुणानादिपापवासनामहार्णवान्तर्निमग्नः तिलतैलवद्दारुवह्निवत् दुर्विवेचत्रिगुणक्षणक्षरणस्वभाव अचेतनप्रकृतिव्याप्तिरूप दुरत्यय भगवन्मायातिरोहितस्वप्रकाशः अनाद्यविद्यासञ्चितानन्ताशक्य विस्रंसनकर्मपाशप्रग्रथितः अनागतानन्तकालसमीक्षयापि अदृष्टसन्तारोपायः निखिलजन्तुजातशरण्या श्रीमन्नारायणा तव चरणारविन्दयुगळम् शरणमहम् प्रपद्ये एवमवस्थितस्याप्यर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीतैकान्तिकात्यन्तिक नित्यकैङ्कर्यैकरतिरूपनित्यदास्यम् दास्यतीति विश्वासपूर्वकम् भगवन्तम् नित्यकिङ्करताम् प्रार्थये तवानुभूतिः सम्भूतप्रीतिकारितदासताम् देहि मे कृपया नाथ न जाने गतिमन्यथा सर्वावस्थोचिताशेषशेषतैकरतिस्तव भवेयम् पुण्डरीकाक्ष त्वमेवैवम् कुरुष्व माम् एवम् भूततत्त्वयाथात्म्यावबोध तदिच्छारहितस्यापि एतदुच्चारणमात्रावलम्बनेन उच्यमानार्थपरमार्थनिष्टम् मे मनस्त्वमेवाद्यैव कारय अपारकरुणाम्बुधे अनालोचितविशेषाशेषलोकशरण्या प्रणतार्तिहरा आश्रितवात्सल्यैकमहोदधे अनवरत विदित निखिल भूत जातयाथात्म्या सत्यकामा सत्यसंकल्पा आपत्सखा काकुत्स्था श्रीमन् नारायणा पुरुषोत्तमा श्रीरंगनाथा मम नाथा नमोस्तु ते श्रीरंगनाथा मम नाथा नमोस्तु ते इति श्रीरंगगद्यं संपूर्णम्।